वक्षस्थलावस्थानस्तवकः श्रयेशेषाचलमणेशार्गिणो हृदयङ्गमाम् अनुकम्पाम् इवाकम्पाम् अम्पाम् अम्बुजवासिनीम् श्रयेशेषाचलमणेशार्गिणो हृदयङ्गमाम् अनुकम्पाम् इवाकम्पाम् अम्पाम् अम्बुजवासिनीम् कल्याणि दिव्यकरुणादिगुणां पुराशे काङ्क्षादिगा उदयदायि कडाक्षलेशे भद्राय दैत्यजितुरक्तिर्धनित्यवासे भक्तिस्थिरेण मनसा भवदीम् उपाशे नालीकसम्भवभवादिसुराभिवन्त्ये नानाविधा कृतवाङ्मयमौलिवेद्ये पादोदिपुत्रिपदि वक्षसि नित्यहृत्ये भान्तीम् अनन्यशरणो भवदीं प्रपद्ये शय्यागृहं तव पिता जगदां नियन्तुः भ्राता मृगाङ्गयिधर पुनरङ्गभोषे वक्षस् अमुष्य वरदे त्वमवस्थिता तत्त्वालभ्यमम्ब भवदीयम् अनन्यलभ्यम् प्रादुर्वितोर्वसु संवृति असकेषु पद्मेषु आस्ते रमेत् अपयस प्रसमाय नूनम् सोदर्यकौस्तुभसुभावकम् अब्धिकन्ये वक्षस्त्वम् आवससि वेङ्कटनायकस्य भगवद प्रदिको हृदि मा स्मभूत् समुदयत् वृजिनेषु जनेष्विति अवहिता जगदम्बहिताय नो हृदयमेव हरेरधिष्ठसे पणिशैलपदे स्त्वमिन्दिरेः भवसि प्राणसमेधि सम्प्रदम् अमुना भवति यदस्वयं हृदये प्राणपदे निवेशिता उरगात्रिपदेर्वुरस्थले भवति तद्गलशङ्गगर्भमुक्तैः सुसिहारमकः सुरस्रवन्ति सलिलैरम्ब सदाभिशिष्यसे त्वम् कुमारि क्षीराब्दे कुसुमसुकुमाराङ्गि भवति नवं पद्मं सत्मं मृदिमरमणीयं विजहति चरण्येत्रादुम्न शरकिणगनं कौस्तुभशिला कठोरं गाढोरश्रयसि कृपया कैडभरिभोः श्रीवत्साङ्गं शिरधरमुरस्सीमकोष्ठं मुरारेः अध्यासीनाम् अनघहरितोदारकान्त्याभिरामम् कल्याणि त्वाम् अतुलम् अमृतं संसृतानां दुहानां क्षीराम्बोदे समुदितवदि भ्रोमहे कामधेनुम् विस्वादीतो जयति वृजिनह्रासदो वासुदेवः पद्मे तस्या उपरि महिमा वासते तावकीनः क्षेत्रज्ञानां हृदयम् अनिशं कञ्जनाबोधिषेते तस्यापि त्वम् हृदि हृदतमो राजसे राजसेया वीक्षन्ते ये वेङ्गडक्ष्माभृत् इन्दोः सूरस्थाने शोभमानाम् इह त्वाम् दुःखोदन्वत्पुत्रि दिव्यं पदं ते सूरस्थानं हन्द भित्त्वा विशन्ति बलिवसुमुषप्रकर्षात् चोरस्थलम् उपेत्य कमले त्वम् अस्माकम् अपदकानाम् हरसे शिरकालसञ्चितान् अर्थान् शशिरेखा भवदी च श्रीः अब्दे निर्गदे तयोराद्या धारयति कृष्णम् अन्तः कृष्णेनान्तस्तु धार्यते सरबाम् वनमालया प्रमुषिताम् विश्वविभोर्भुजलदैक विडपान्दः कामपि कनकलतां त्वां कलसाकूपारकन्यके मन्ये परमदुलसीतम् अनगे वनमालाप्तं सुलक्ष्मणा कलितं कलयसि शत्रुभयुतं वक्षोदे संहरेर्महारामम् दृष्टात्मप्रतिबिम्बकेषु मणिषोत्राग्न्दिरे मास्मभूत् अन्धस्तेष्वपलान्तरस्तिदिह कोपस्तवेत्यच्युदः सङ्कोन्मेष कदा पदाधिपतितं संत्यक्तरत्नान्तरः तं त्वत्सोदरमेव कौस्तुभमणिं दत्ते पूजा अन्धरे सस्नेकमूर्तिरुदिदत्रिदशोपजीवी दीपो हरेर्वुरसि देवि तवेष्टगेः अस्माकम् आन्तरतमप्रशमय्य मुक्तेः मार्गं प्रकाशयतु कौस्तुभरत्नदीपः सरसिजनिलयापि वैभवेन स्फुरसि निरेन सि मानसे मुनीनाम् उरसि मुररिपोर्वुपोडहारे शिरसि च देवि गिरां पुरातनीनाम् शुभश्रीवत्साङ्गं शुचिरुचिरहारं मुररिपोः तमालाभं वक्षस्थ तरलवनमाला सुरबिलम् परिष्कुर्वाणां त्वं भवजलधि सोषाय कलये जगन्मादप्रादस्तनजलजदायातवदनाम् प्राचीनवाक्परिषदां परतत्त्वचिन्तां व्यालेन्द्रबोधरपदिर्व्यपनेतु कामः कान्दोऽपि भर्ति भवतीं कलशाब्दिकन्ये भूषाविशेषमिव देवि भुजान्तराले स्वभावात् उन्मीलत् बहुलसुमनः कोमलतनोः तव क्लेशाशङ्काकुलितहृदयेनाभिहरिणा त्वदाग्रान्ते हन्दव्युदसितुम् पुरस्यं बबुलकाः न शक्यन्ते पद्मेन खलु सुलभकण्डः जयः निरत्ययं नीलमहो निदानं कान्दं मुहुन्दापितम् इन्दिरे त्वं निरञ्जनैर्येव जनैर्गृहीतम् वीक्ष्यस्थिता वक्षसि रक्षितिं किम् जननि पुष्यसि तामरसंपदं विदनुषे च न तामरसंपदं परं उरस्फुरणप्रतिरोदिनः परं उरस्फुरणं नयसेद्भुतम् यति नाम विष्णुवक्षः क्षणमद्य क्षमात्मजेनुत्वम् आकस्विनस्तथा नः नैवारक्षिष्यत्ऊष्मलः कालः हृदये कमलदलाक्षी त्वत्पदलाक्षीयलक्ष्मभवदीं च तदत्ऊष्मलोऽपि कृष्णोऽपि अधिकारुण्यं वहत् अहि गिरीशः ಹೃದಯೆ ಕಮಲದಲಾಕ್ಷೀ ತ್ವತ್ಪದಲಾಕ್ಷೀಯಲಕ್ಷ್ಮಭವದೀಂ ಚ ತದತ್ಮೂಷ್ಮಲೋಪಿ ಕೃಷ್ಣೋಪಿ ಅಧಿಕಾರುಣ್ಯಂ ವಹತ್ ಅಹಿ ಗಿರೀಶಃ. ಇದು ಶ್ರೀಮತ್ ವೆಂಕಟಾತ್ವರಿ ವಿರಚಿತೇ ಶ್ರೀಮಲ್ಲಕ್ಷ್ಮೀ ಸಹಸ್ರೇ ವಕ್ಷಸ್ಥಲಾವಸ್ಥಾನಸ್ತಭಃ ಹೃದಯ ಸಂಪೂರ್ಣಃ.